अथ चतुर्दशो अध्यायः श्रीभगवानुवाच परं भूय प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः सर्गे अपि नोपजायन्ते परलये न व्यथन्ति च मम यो निर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् संभव सर्वभूतानां ततो भवति भारत सर्वयोनिषु कौन्तेय मूर्तय संभवन्ति याः तासां ब्रह्म महद्योनिरहं बीजप्रदं पिता सत्त्वं रजस्तम एते गुणाः प्रकृति संभवाः निबध्नन्ति महाबाहो देहे देहनमं व्ययम् तत्र सत्त्वं निर्मलत्वात् प्रकाशकं मनामयम् सुखसङ्गेन बध्नाते ज्ञानसङ्गेन चान्नघ रजो रागात्मकं विन्धे तृष्णासङ्गसमुद्भवं तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहनम् तमस्त्वज्ञानजं विद्धे मोहनं सर्वदेहनां प्रमादालस्य निद्राभिस्तन्निबध्नाति भारत सत्त्वं सुखे सञ्जयते रजकर्मणि भारत ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत रजस्तमश्चाभिभूय सत्त्वं भवति भारत रजः सत्त्वं तमश्चैव तमसत्त्वं रजस्तथा सर्वद्वारेषु देहे अस्मिन् प्रकाश उपजायते ज्ञानं यदा तदा विद्या विवृद्धं सत्त्वमित्युत लोभं प्रवृत्तिरारम्भः कर्मणाम् शमः स्पृहा रजस्येतानि जायन्ते विवृद्धे भरतर्षभ अप्रकाशो अप्रवृत्तिश्च प्रमादो मोह एव च तमस्येतानि जायन्ते विवृद्धे गुरुनन्दन यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् तदोत्तमं विदां लोकान् अम्लान् प्रतिपद्यते रजसीं प्रलयं गत्वा कर्म सङ्गेषु जायते तथा प्रलीनस्तमसि मूढायो निषु जायते कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलम् रजसस्तु फलं दुःखम् अज्ञानं तमसः फलम् सत्त्वात् सञ्जायते ज्ञानं Rajaso lobha eva cha pramandam moha tamaso bhavato jnanam eva cha urdhvam gacchanti sattvastha madhye tishthanti rajasah jaghanya guna vrittistha adho gajanti tamasah nanyam gunebhya kartaram yada drashtanu pashyate gunebhyascha param veti madbhavam svadhigacchate gunane tanatityatri dehi deha samudbhavan janmam mrtyurjarav dukhair vimokto mrittam ashnute arjuna uvacha kairlingai streen gunane tan atito bhavate prabho kimmachara katham chaitam streen gunanati vartate shri bhagavan uvacha prakasham cha pravrittim cha moham eva cha pandava na dveshti sampravrittani na nivrittani kankshate undasina vadasino gunairyo na vichalyate guna vartanta etyevam yovavatishthati nengate samadhukha sukha svasthaha samaloshtasmakanchanaha tulyam priya priyo dhiras tulyanindatma samstutihi manapamanayos tulyas tulyo mitrari pakshayoh sarvarambha parityagi gunatitasa unchate mam chayo avyabhichareṇa bhakti yogena sevate sagunān samatityaitān brahmam bhūyāya kalpate brahmano hi pratiṣṭhāham amṛtasya vyayasya ca śāśvatasya ca dharmasya sukhasya ekāntikasya ca iti śrī mahābhārate śata-sahasriyām samhitāyām vayāsikyām bhīṣma parvaṇī śrīmad bhagavad gītāsu paniṣadsu brahma vidyāyām yoga śāstre śrī kṛṣṇa arjuna samvāde guṇatraya vibhāga yogo nāma chaturdasho adhyāyaḥ.